सदानिम्बवृक्षस्य मूलाधिवासात् सुधाश्राविणं तिक्तमप्यप्रियं तं तरुं कल्पवृक्षाधिकं साधयं तं नमामीश्वरं सद्गुरुं साईनाथ।